जयति तेधिकं जन्मना व्रज शरत इंदिरा शाश्वत अत्र हि दयित दृश्यता दीक्षुतावका दरिद्रितास्व स्वां विचिन्वते शरदुदाशय साधु जातस सरसि चोदर सुरतनाथ ते शुकदासिका वरद निघ्नतो नेह किं वद
Thank you.
लेखन सार्थितो विश्वगुप्तये भयं वृष्णि धूर्यते चरणमीयुषां संसृते भया सरोरुहं कांत कामदं शिरसि देहिनः शिखर ग्रहम् जनातिहं वीरयोषिता निज जन स्मय भंसन स्मित सखे भव किं करि स्मनो जलरुहाननं चारु दर्शय देहिनां पापकर्षणं तृणचरानुगं श्रीनिकेतनम् पणार्पितं ते पदाम्बुजं वेणुकुचेषु नः कृन्दिरक्षयम् मधुरया गिरा यया पुष्करे क्षण विधि करी वीर मुह्यति अधरसी तुना यस्वन कथामृतं तप्त जीवनं कविभिरीडितं कल्मषापहम् श्रवणमङ्गलम् श्रीमदाततम् प्रहसितं प्रिय प्रेम वीक्षणम् हरणं च ते ध्यानमङ्गलम् रहसि संविदो यारिदि स्पृशः कनो मन क्षोभयं चलसि यत्प्रजा चारयन् पशु नलिन सुन्दरम् नाथ ते पदम् शिलतृणाङ्कुरे सीदति दिनः मनः कान्त गच्छति वृतावृतम् धनरजस्वलम् दर्शयन् मुहो मनसि नः स्मरम् वीरयच्छसि कामदं पद्मजार्जितम् धरणिमण्डनम् हेयमापदि चरणपङ्कजं शन्तनं च ते रमणनस्तनेष्वर्पयाभिहन् सुरतवर्धनम् शोकनाशनम् सुष्ठुचुम्बितम् इतररागवे स्मारणम् नृणा तरवीरनास्ते धरामृतम् अनतिय भवाम् अहनिकाननम् युगायते त्वामपश्यतां कुटिलकुन्तलं श्रीमुखं च ते जडउदीक्षताम् पक्ष्मकृदृशाम् जडउदीक्षताम् सुतान्वयं भ्रातृबान्धवान् अतिविलङ्घ्यते अच्युताकता गतिविदस्तवो गीतमोहिता योषिता कस्त्यचेन्निषि रहसि संविदं हृच्छयोदयम् सीताननं प्रेम वीक्षणं बृहदुरः श्रियो वीक्ष्य धामते मोह्यते मनः व्रजवनौकसां व्यक्तिरङ्गते जिनहन्त्र्यलं विश्वमङ्गलम् त्यजमनाक्षन जन हृद्रुजान् यन्निषूदनम् यत्ते सुजातचरणां गुरुहं स्तनेषु दर्शने प्रियदधीमहि कर्कशेषु तेनाटवीमटसि तद्व्यथतेन किं स्वेपादिभिर्भवति भवदायुषाम्नः तव कथामृतम् जीवनम् कविभिरीडितम् कल्मषापहम् श्रवणमम् विगृह्णन्ति ये भूरिकाचना। हरे कृष्ण हरे कृष्ण 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 Krishna